संन्यासं कर्मणां कृष्ण पुनर्जोगं च संसि जच्छ्रियायै तयोरेकं तन्मे ब्रूहि सुनिश्चितम्। श्री भगवान उवाच संन्यास कर्म योगश्च निःश्रेयस करा बुभो तयोस्तो कर्म संन्यासा कर्म योगो विशिष्यते। केयासा नित्य संन्यासी यो न द्वेष्टि न कांक्षति निर्दन्दो हि महाबाहो सुखं बन्धान् प्रमुच्यते। सांख्यो योगो पृथग बाला प्रवदन्ति न पंडिता एकम्यपस्थितो सम्यक् उभयोर्विन्दते फलम्। यत् सांख्यै प्राप्यते स्थानम् तद् योगैरपि गम्यते एकं सांख्यं च योगं च व्यापश्यति शपश्यति। सन्न्यासस्तु महाबाहो दुःखम् आप्तुम् अजो गतः योगयुक्त मुनिर्ब्रह्मा न चिरेणाधिगच्छति। योगयुक्त विशुद्धात्मा बीजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते। नैव किञ्चित् करोमीति युक्त मन्येत तत्त्ववेत् पश्वन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् शपन् शशन् प्रलोपन् विसृजन् गृह्णन् उन्मीषन् निमिषन्नपि इन्द्रियानिन्द्रियार्थेषु वर्तन्त इति धारयन्। ब्रह्मन्नाधाय कर्माणि सङ्गं तत्त्वा करोति च लिप्यते न स पापेन पद्मपत्रम् विबम्भस। कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्तात्मशुद्धये। युक्तं कर्मफलं तत्त्वा शान्तिमाप्नोति नैष्ठिकम्। अयुक्त कामकारेण फले सक्तो निबद्धते। सर्वकर्माणि मनसा सन्नस्सास्ते सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन्न कारयन्। न कर्तित्यं न कर्माणि लोकस्य सृजति प्रभु न कर्म फलसंयोगं स्वभावस्तु प्रवर्तते। नादत्ते कस्यचित् पापं न चैव सुकृतं विभु अज्ञानेन कृतं ज्ञानं तेन मुह्यन्ति जन्तवः। ज्ञानेन तु तदज्ञानं जेषान्नाश्रितम् आत्मनः तेषामादित्यवज्ञानं प्रकाशयति तत्परम्। तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणः गच्छन्त्या पुनरावृत्तिं ज्ञाननिर्धीतकल्मषा। विद्या विनय सम्पन्ने ब्राह्मणे गोपी हस्तिने शुनि चैव स्वपाके च पण्डिता समदर्शिना। इहैव तैर्जितो सर्वो येषां सम्मे स्थितं मनः ज्ञानः निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थितः न प्रहिष्ये प्रियं प्राप्य नो द्विजेत् प्राप्य चाप्रियं स्थिरबुद्धिरसंमूढ ब्रह्मभिः ब्रह्मणि स्थितः बाह्यस्पर्श सशक्तात्मा बिन्दत्यात्मनि जत्सुखम् सा ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते जेहि संस्पर्शजा भोगा दुःखजो नय एव ते आद्यन्तवन्त कौन्तेय न तेषु रमते जतात्मानः सर्वभूत हिते रता काम क्रोध विजुक्तानां यतीनां व्यतचेतसां अभितो ब्रह्म निर्वाणं वर्तते विदितात्मनां स्पर्शं कृत्वा बहिर्बाह्यं चक्षुश्चैवान्तरे भुवौ प्राणापानौ समो कृत्या नासभन्तारचारिणौ जतेन्द्रियो मनोबुद्धिर्मुनिर्मोक्षपरायणः विगतेच्छा भयक्रोध या सदा मुक्त एव स भोक्तारं यज्ञतपसां सर्वलोको महेश्वरम् सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिं पृच्छति ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे